प्रत्यक्षालिखत स्फुट स्थिर पर द्रव्यास्तिता वञ्चितः स्वद्रव्यानवलोकनेन परितः शून्यः पशुर्नश्यति स्वद्रव्यास्तितया निरूप्य निपुणं सद्यः समुन्मज्जता स्याद्वादी तु विशुद्धबोधमहसा पूर्णो भवन् जीवति।